एसआरएनडी नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचको रामहरि दालः प्रधानमन्त्री केपी शर्मा ओली वृक्कस्य प्रत्यार्पणस्य अनन्तरम् पूर्णरूपेण स्वास्थ्य लाभम् प्राप्य गतसायम् त्रिभुवन विश्वविद्यालयस्य शिक्षण चिकित्सालयात् प्रधानमन्त्री निवासे बालटार स्थाने प्रत्यावृत्तो वर्तते। त्रिवी शिक्षण चिकित्सालयस्य कार्यकारी निदेशकेन प्राध्यापकेन डाक्टर प्रेमकृष्ण खड्का विधेन गतदिने पत्रकार सम्मेलनमा आयोज्य प्रधानमन्त्रिणः ओलिनः स्वास्थ्यावस्था अनुकूला स्थिति कारणेन ह्यैव सायम् चिकित्सालयात् प्रेष्यति इति ज्ञापितम् आसीत्। प्रधानमन्त्री ओली गत फाल्गुन मासस्य ऊनविंशे दिवसे वृक्कस्य प्रत्यारोपणाय चिकित्सालये प्रविष्टा आसीत्। तत्पूर्वमेव प्रधानमन्त्रिणे ओलिने वृक्कदात्री स्वास्थ्य लाभम् प्राप्य गत बुधवासरे एव गृहम् प्रत्यावृता आसीत्। प्रधानमन्त्री केपी शर्मा ओली कोरोना जीवाणुनाम् संक्रमणस्य प्रसारम् रोद्धुम् स्वनेतृत्वस्य सर्वकारः सार्क संगठनस्य सदस्य राष्ट्राणाम् नेतृत्वेन सह निकट सम्पर्के स्थित्वा कार्याणि कर्तुम् तत्परो वर्तते इति निगदति। भारतस्य प्रधानमन्त्रिणा नरेन्द्र मोदिना कोविंग ऊनविंशति नामध्यानम् कोरोना जीवाणुनाम् संक्रमणस्य प्रसारम् रोद्धुम् सार्क संगठनस्य नेतृत्वेन सुदृढ रणनीतिः अवलम्बनीयति कथयता। गतदिने ट्वीट सञ्जाल माध्यमेन प्रस्तावितः प्रस्तावः प्रधानमन्त्रिणा ओलिना अभ्यर्थितोऽस्ति। विदेशेभ्यो नेपालम् आगतैः वैदेशिकैः नेपालीभिश्च अद्यतः चतुर्दश दिनानां कृते सुरक्षित परीक्षण कक्षे स्थातव्यम् भवति। नेपाले कोरोना जीवाणुनाम् संक्रमणस्य प्रवेशनम् रुद्धम् विदेशात् आगतैः वैदेशिकैः सुरक्षा परीक्षण कक्षे नेपालीभिश्च सुरक्षा परीक्षण गृहे चतुर्दश दिनानि स्थेयम् भवतीति सर्वकारेण निर्णीतम् वर्तते। एवमेव नेपालस्य प्रवेशबिन्दौ वैदेशिकेभ्यः प्रदीयमानस्य आगमन प्रवेशाज्ञा पत्रस्य व्यवस्था गतरात्र्याः द्वादशवादनतः वैशाख मासस्य अष्टादश दिवसम् यावत् स्थगिता वर्तते। अनेन सहैव अपरस्या सूचनायाः अप्रकाशनम् यावत् श्रमस्वीकृतिः स्थगितीकृता। अध्ययनाय विदेशेषु गन्तुकामानाम् विद्यार्थिनाम् कृते वैशाख मासस्य अष्टादश दिवसम् यावत् विदेशयात्रायाः अनुमति प्रदान पत्रम् च न प्रदातुम् निर्णीतम् इति सचिवालयेन ज्ञापितम् वर्तते। एवमेव सर्वकारेण राजधान्यः सहितेषु सप्तसु एव प्रदेशेषु आईसीयू नाम्नः परीक्षण कक्षस्य आइसोलेशन कक्षस्य च स्थापनायै निर्णीतम् वर्तते। अथ च नेपाले पर्वतारोहणाय एतत् ख्रीष्टवर्षस्य वसन्तर्तवे क्रियान्वितम् क्रियान्वयमानञ्च अनुमति प्रदान पत्रम् साम्प्रतम् सर्वकारेण स्थगितीकृतम् वर्तते। धरानवर्तिनी बीपी कोइराला स्वास्थ्य विज्ञान प्रतिष्ठाने कोरोना जीवाणुनाम् संक्रमणस्य आशंकायाम् आइसोलेशन परीक्षण कक्षे स्थापितस्य व्यक्तिद्वयस्य मध्ये ह्यः एका प्रत्यावर्तिता वर्तते। कोरोना जीवाणुनाम् संक्रमणस्य आशंकायाम् सप्ताहपूर्वम् आइसोलेशन परीक्षण कक्षे संस्थाप्य हङकङ स्थानतः आगताया एकस्य महिलायाः दक्षिण कोरिया देशात् आगतस्य एकस्य पुरूषस्य च उपचारः विधीयमान आसीत्। उपचार्यमाणस्य व्यक्तिद्वयस्य मध्ये महिला प्रत्यावृता पुरूषस्य परीक्षण प्रतिवेदनस्य प्राप्तिः अवशिष्टेति प्रतिष्ठानस्य सहप्रवक्ता डा अशोक अय्यर ज्ञापयति। कोरोना जीवाणुनाम् संक्रमणस्य प्रवेशम् रोद्धुम् भारतेन सह सम्पृक्त सीमानः पञ्च प्रवेशबिन्दवः पिधापिता सन्ति। आविश्वम् महामार्या रूपेण प्रस्यमानम् कोरोना जीवाणुनाम् संक्रमणात् नेपालस्य अर्थतन्त्रे सम्भावितम् प्रभावो न्यूनीकर्तुम् तत्कालम् आर्थिक मौद्रिक सुधारस्य कार्यक्रमान् साधनीकर्तुम् अर्थविद्भिः सर्वकारः अनुरोधो वर्तते। रिपोर्टर्स क्लब संस्थया गतदिने काष्ठमण्डपे आयोजिते साक्षात्कारे अर्थविद्भिः कोरोना जीवाणुनाम् कारणात् नेपालस्य पर्यटनम् अतिथिगृह व्यवसायः सर्वकारीय निवेशनानाम् विपुला योजनाश्च प्रभाविताः सन्तीति तर्कयन्तः। अस्य प्रभावम् न्यूनीकर्तुम् सर्वकारः तत्कालम् प्रयासम् प्रारब्धम् अभियाचितोऽस्ति। वीरगंजस्थानात् वैष्णोदेवी मन्दिरस्य दर्शनाय प्रस्थिता षष्ठितोऽपि अधिका नेपाली तीर्थयात्रिणः भारतस्य कटरास्थाने कोरोना जीवाणुनाम् परीक्षणाय भारतीय प्रहरिणो निरीक्षणे अवरोहिताः सन्ति। नेपाली तीर्थयात्रिणाम् समूह कटरा रेलयान विश्रामस्थले रेलयानात् अवरोहणम् अनु भारतीय प्रहरीभिः नियन्त्रित दिनत्रयात् नियमित स्वास्थ्य परीक्षण विधाय भारतीय प्रहरीभिः स्थानीय धर्मशालायाम् स्थापितो वर्तते। एते नेपालिनः चतुर्दश दिनानाम् पश्चादेव मोचयिष्यन्ति इति भारतीय प्रहरिणा ज्ञापितमस्ति। सार्वजनिक लेखा समित्या सुरक्षण मुद्रणोपकरण प्रक्रियाम् निरस्तुम् क्रयण प्रक्रियायाम् विहिताम् अनियमिताम् अनुसन्धातुम् च अधिकार दुरूपयोग अनुसन्धान आयोगः निर्दिष्टोऽस्ति। समितेः यस्तनोपवेशेन सर्वकार सर्वकारयोर्मध्ये विधीयमानायाः क्रयण संविदायाः विषये विमर्शनाय मन्त्रिणः मुख्य सचिवञ्च समितौ आह्वातुम् सुरक्षण मुद्रणोपकरण क्रयण प्रक्रियायै व्ययानुमानस्य अथत्य विवरणस्य सार्धकेषु अतिरिक्तम् अनुसन्धातुं च निर्णीतम् वर्तते। संस्कृति पर्यटन नागरिक उड्डयन मन्त्रालयेन स्वस्य अन्तर्गता निकायः कार्याणि प्रभावकारिणि विधातुं निर्दिष्टाः सन्ति। मन्त्रालयस्य अन्तर्गतानां नेपाल नागरिक उड्डयन प्राधिकरणस्य पर्यटन विभागस्य नेपाल पर्यटन समितेः पर्यटन प्रतिष्ठानस्य कोषस्य संग्रहालय विकास समितेश्च उच्चाधिकारिभिः साम्प्रतमेव विहितीय विमर्शने संचालितानाम् आयोजनानां समीक्षणपूर्वकम् भाविरणनीतिम् निर्मातुम् आयोजितायाम् द्विदेशीयायाम् उच्चस्तरीय कार्यशाला गोष्ठ्याम् एवं निर्देशनम् प्रदत्तम् वर्तते इति पर्यटन मन्त्रालयेन विज्ञप्तौ ज्ञापितम् वर्तते। भौतिक पूर्वाधार यातायात मन्त्री वसन्त नेम्बाङ भाषते अस्यैव आर्थिक वर्षस्य अभ्यन्तरे जनकपुर जयनगर रेलसेवा सञ्चालयिष्यते। नेपाल रेलसेवाम् निरीक्षितुम् गतदिने जनकपुर धामनि प्राप्तो मन्त्री नेम्बाङ यथा कथञ्चित् आगामिनाम् त्रयाणाम् चतुर्णाम् वा मासानाम् अभ्यन्तरे रेलयानम् सञ्चालयिष्यति इति प्रतिबद्धताम् व्यक्तवान्। प्रतिनिधिसभाया विकास प्रविधि समितेः ह्यस्तनोपवेशे पेयजल स्वच्छतायाः सम्बन्धे व्यवस्थातुम् निर्मितम् विधेयकम् आश्रित्य सूत्रगतम् विमर्शनम् विहितम् वर्तते। सिंहप्रासादे उपविष्टे तस्मिन् उपवेशे सांसदाः विधेयके जनतायै स्वच्छ पेयजलस्य सहजतया प्रापणत्वेन व्यवस्थाम् विधातुम् बलम् प्रादुः। द्वितीय प्रदेशस्य स्थायी राजधान्यः नामकरणस्य विषये अस्यैव मासस्य चतुर्थे दिवसे मतदानम् भविता। मासत्रयस्य अनन्तरम् ह्यः उपविष्टे प्रदेशसभाया उपवेशे प्रदेशस्य नाम राजधानीम् च निर्धारयितुम् गोप्य मतदानाय प्रस्तुतम् प्रतिवेदनम् विमृश्य अस्यैव चैत्रमासस्य चतुर्थे दिनांके अष्टवादने प्रातः मतदानम् विधातुम् सर्वसम्मत्या निर्णीतम् वर्तते।